एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। अधिकार दुरूपयोग अनुसन्धान आयोगेन पारपत्र मुद्रण सम्बद्धे कार्य भ्रष्टाचार विहित इत्यभियोगे पारपत्र विभागस्य महानिर्देशकेन तीर्थराज अर्यालेन सहितानाम् षोडश जनानाम् सम्बद्धायाः संस्थायाश्च विरूद्धे विशेष न्यायालये आरोप पत्रम् पञ्जीकारितमस्ति। आयोगेन ह्य विभागस्य महानिर्देशकस्य अर्यालस्य सूचना प्रविधि निर्देशकस्य सुनील कुमार केसी इत्यस्य च विरूद्धे दशाब्जानाम् त्रयोदश कोटीनाम् चतुर्लक्षाणां च रूप्यकाणां हानि वित्तमभियाच्य आरोप पत्रम् पञ्जीकारितमस्ति। तात्कालिकस्य निर्देशकस्य शत्रुघ्न प्रसाद शर्मा पोखरेलस्य रविन्द्र राज भण्डारी इत्यस्य लेखाधिकृतस्य तुलसी प्रसाद आचार्यस्य सुसांख्य स्थपतेः विपिन प्रसाद इत्यस्य शाखाधिकृतस्य सोमेश थापा इत्यस्य च विरूद्धे समान हानि वित्तमभियाचितमस्ति। आयोगेन परराष्ट्र मन्त्रालयस्य तात्कालिकानाम् उपसचिवानाम् राजाराम दहालस्य पुष्कर राज नेपालस्य भेषप्रसाद फूर्तेलस्य च विरूद्धे समान हानि वित्तमभियाचितमस्ति। पारपत्र मुद्रणस्य जर्मन कम्पनी भेरिडास जीएमबीएच इति दायित्ववाही संस्थायाः नेपालस्य प्रतिनिधेः सिद्धार्थ थापा इत्यस्य विरूद्धे अष्टाब्जानाम् द्वाविंशतिः कोटीनाम् पञ्चत्रिंशत् लक्षाणाञ्च हानि वित्तमभियाच्य न्यायिक प्रकरणम् पञ्जीकारितमस्ति। एवमेव म्यूलवैर इति संस्थायाः नेपालस्य प्रतिनिधेः मणीन्द्र राज मल्लस्य विरूद्धे दशाब्जानाम् नवतेः कोटीनाम् एकोनसप्ततेर् लक्षाणाञ्च रूप्यकाणाम् हानि वित्तमभियाचितमस्ति। दुर्भावनया पारपत्र विभागस्य दशाब्जानाम् त्रयोदश कोटीनाम् चतुर्लक्षाणाञ्च रूप्यकाणाम् हानिर्विहितेति अभियोगे आयोगेन विधेरनुसारेण हानि वित्तस्य कारावास दण्डस्य च याचनाम् विधाय एतेषाम् विरूद्धे आरोप पत्रम् पञ्जीकारितमस्ति इति आयोगस्य प्रवक्ता सुरेश नेउपाने अज्ञापयत्। नेकपा एमाले दलस्योपाध्यक्ष विष्णुप्रसाद पौडेल प्रहरिणा निगृहीतोऽस्ति। एमाले दलस्य उपाध्यक्ष पूर्व अर्थमन्त्री च पौडेल सम्पत् शुद्धिकरण विभागेन ह्य सुर्खेत जनपदस्य वीरेन्द्रनगरात् निगृहीतोऽस्ति। पौडेल नेकपा एमाले दलस्य पुनर्घटन सम्बद्धस्य परामर्श संकलनस्य कार्यक्रमस्थलात् निगृह्य नेपालगंज नगरं प्रति प्रापितोऽस्ति इति ज्ञापितं वर्तते। सुरक्षा निकायस्य अनुसारेण पौडेल तेन विहितस्य निवेशनस्य सम्पदस्य विषये अनुसन्धानाय निगृहीतोऽस्ति इति सुर्खेत जनपद प्रहरी कार्यालयस्य प्रवक्ता कविन्द्र सिंह बोहरा असूचयत्। राष्ट्रिय स्वतन्त्र दलस्य आन्तर सत्रम् अद्य प्रातः सप्तवादनात् प्रारप्स्यते। प्रतिनिधिनाम् विरूद्धे प्रस्तुतानाम् अभियोगानाम् अनुसन्धानाय समयस्य आवश्यकतायाः पश्चात् ह्यस्तन दिवसाय निर्धारितम् आन्तर सत्रम् स्थगितम् आसीत् इति महामन्त्री कविन्द्र बुर्ला कुची असूचयत्। अद्य आन्तर सत्रस्य प्रारम्भे एव अनुशासन आयोगस्य पक्षतः रमाकान्त रिमालः अनुशासन आयोगस्य प्रतिवेदनम् प्रस्तोष्यति। तदनुकोषाध्यक्षस्य लिमा अधिकारी इत्यस्य आर्थिक प्रतिवेदनस्य प्रस्तुतेः कार्यक्रमो वर्तते। आन्तर सत्रे एव महामन्त्री कविन्द्र बुर्लाकोटी संघटनात्मकं प्रतिवेदनं प्रस्तोष्यति। तदनु दलसभापतेः रवि लामिछानेविदस्य राजनीतिक प्रतिवेदनस्य प्रस्तुतेः कार्यक्रमो वर्तते। बारा जनपदस्य जितपुर सिमरा उपमहानगरपालिकायाः नवमौडा क्षेत्रस्य छातापिपरा स्थाने मोटरसाइकल यानेन मार्गे गच्छति जने प्ररिते सति दुरापन्नायाम् दुर्घटनायाम् त्रयो जनाः मृताः सन्ति। जितपुरस्थानात् बीरगंज स्थानम् प्रति प्रस्थीयमानस्य मोटरसाइकल यानस्य दुर्घटनायाम् याने आरूढौ द्वौ मार्गे संचरन् एकश्चेति कृत्वा त्रयो जनाः मृताः वर्तन्ते इति बारा जनपद प्रहरी कार्यालयस्य प्रहरी प्रवक्ता मीनबहादुर घले सूचयति। दुर्घटनायाम् जितपुर सिमरा उपमहानगरपालिकायाः प्रथमौडा क्षेत्रस्य विंशति वर्षीय सभ्य अधिकारी साइकल यान चालक काष्ठमण्डपस्य टोखा नगरपालिकाया डिजेन जोशी च मृतौ इति ज्ञापितमस्ति। अपरस्य जनस्य सत्यापनं सम्भूतं नास्ति इति प्रहरिणा ज्ञापितं वर्तते। नेपाले शरणाम दिनानाम विलम्बनेन प्रविष्टा अस्य वर्षस्य वर्षाज प्रणाली देशस्य पूर्व मध्य भागेषु विस्तीर्णा वर्तते। जलवायु विज्ञान विभागस्य अन्तर्गतया वर्षा पूर्वानुमान शाखया ह्य प्रकाशितायाः वृष्टि सम्बद्धायाः सूचनायाः अनुसारेण कोशी प्रदेशात् गत शुक्रवासरे नेपालं प्रविष्टा वृष्टिज प्रणाली ह्य अतिरिक्तेषु प्रदेशेषु विस्तीर्णा वर्तते। महाशाखायाः अनुसारेण अधुनावधि वृष्टिज प्रणाली कोशी देशस्य सम्पूर्ण भूभागेषु मधेश बागमती गण्डकी प्रदेशानां कतिपय भूभागेषु लुम्बिनी प्रदेशस्य पूर्व भागेषु च व्यापिता वर्तते। वर्षायामज प्रणाली दुर्बलावस्थायामेव विद्यमानत्वा देशस्य अवशिष्ट भूभागेषु अस्याः विस्ताराय अन्यानि कतिपय दिनानि अपेक्षन्ते इति विभागस्य जलवायुविद संजीव अधिकारी असूचयत्। सामान्यतः नेपाले वर्षा प्रणाली जून मासस्य त्रयोविंश दिवसं यावत् प्रविशति, परं वर्षेस्मिन् षण्णां दिनानां विलम्बनेन प्रणाली एषा प्रविष्टा अस्तीति महाशाखया ज्ञापितं वर्तते। प्रधानमन्त्रिणा बालेन्द्र शाहेन चितवन जनपदस्य सौराहवर्तिन अस्थि प्रजनन केन्द्रस्य अथ च प्रशिक्षण स्थलस्य ह्यो निरीक्षणं विहितम् वर्तते। प्रजनन केन्द्रस्य प्रमुखस्य मणिपूरण चौधरिण अनुसारेण सपरिवारं प्रधानमन्त्री शाह पूर्वे द्यु केन्द्रमेतत् प्राप्तवान् वर्तते। खोरस्वरवर्तिनी प्रशिक्षण केन्द्रे सम्प्रति नवसंख्यायां हस्तिन्यः सप्तसंख्यायां हस्तिशावकाश वर्तन्ते। राष्ट्रिय स्वतन्त्र दलस्य वरिष्ठ नेता च प्रधानमन्त्री शाह दलस्य प्रथम राष्ट्रिय महाधिवेशने भाग ग्रहणस्य क्रमे सम्प्रति चितवन जनपदे वर्तते।